कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावम् यस्मादित्तं विविधरचना सृष्टिरेषा बभूव भक्तिग्राह्यः त्वमसि तदपि त्वामहं भक्तिमात्रात् स्तोतं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व कर्त्रधिष्ठानहीनम् नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावः तस्मादाद्यः त्वमसि जगता नाथ जाने विधाता पद्मजं विष्णुमीशं प्राहुस्ते ते परम शिवते मायया मोहितास्त्वाम् एतैर्सार्धं सकलमपि यत् शक्तिलेशे समाप्तम् स त्वं देवः श्रुतिषु विदितः शम्भुरित्यादिदेवः अद्वातीते शुचि दिवसकृत् कोटिदीप्रेकपर्दिम् आगे स्थाने विहरसि सदा सेव्यमानो गणेशैः तरे नित्यमाराधयन्तः अन्ये वर्णाश्रमविधिरता पालयन्तस्त्वदा पापः पतामि क्षत्रयार्थं प्रज्ञाहीनं पुरहर भवेत् कथं मे खटेत। संधिबंधे शरीरे प्रेमावेश प्रसरदमिता क्रंदिते बंधुवर्गे अंतप्रज्ञामपि शिव भजन्नन्तरायैरनन्तैः आविद्धोऽहं त्वयि कथमिमामर्पयिष्यामि बुद्धिम्। पदनलिनयोरर्पयाम् अन्तरात्मन् आत्मानं मे सह परिकरैरत्रिकन्याधिनाता नाहं बोद्धुं शिव तव पदं न क्रिया योगचर्याः कर्तुं शक्नोम्यनितरगतिः केवलम् त्वां प्रपद्ये। यस्रष्टारं निखिल जगतां निर्ममे पूर्वमीशः तस्मै वेदानतित सकलान् यश्च साकं पुराणैः तं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशम् संसारार्थः शरणमधुना पार्वतीशं प्रपद्ये। विद्यया मोचयित्वा सान्द्रानन्दं गमयति परं धामतं त्वां प्रपद्ये। संसाराख्यां शमयति रुजं स्वात्मबोधौषधेन तं सर्वाधीश्वर भव महादीर्घतीव्रामयेन कृष्णोऽहं त्वं वरद शरणं यामि संसार वैद्यम्।
विमृत्यः तेभ्यः प्राणोत्क्रमणस
समये सन्निधाय
प्रथममा
शुभद्रावको भक्तिभाजाम् पूर्वं विश्वाधिकशतधृतिं जायमानं महर्षिः दृष्ट्या पश्यत् सकल जगति सृष्टिसामर्थ्यदात्र्या सत्त्वं ग्रन्थि प्रविलय कृते विद्यया योजयास्मान् यद्याकाशं शुभदमनुजाश्चर्मवद्वेष्टयेयुः दुःखस्यान्तं तदपि पुरुषस्त्वामविज्ञायनैति विज्ञानं च त्वयि शिवर्ते त्वत्प्रसादान्न लभ्यं तद्दुःखार्तः कमिह शरणं यामि देवं त्वदं कपचो गुम्भनैः किं पुराणैः तन्त्राद्वैर्वा पुरुषमतिभिर्दुर्निरूप्यैकमत्यैः किं वा शास्त्रैरपलकलहोल्लासमात्र प्रधानैः विद्या विद्येश्वर कृत चपलः संतत द्रोहशाली कार्पण्यैकस्थिर निवसति पुण्यगन्धानभिज्ञः यद्यप्येवं तदपि शरणं त्वत्पदाब्जं प्रपन्नं नैनं दीनं स्मरहर तवापेक्षितुं नातयुक्तम् नातदोषानन्तान् अस्मत्पादाश्रयणपदवीं नार्हतीति क्षिपेन्माम् अद्यैवेमं शरणविरहाद् विद्धि भीतेव नष्टम् ग्रामो गृह्णात्यहिततनयं किं नु मात्रा निरस्तम् निखिलमपि मे भूतभावी व्यलीकम् दुर्व्यापार प्रवणमथवा शिक्षणीयं मनो मे न त्वेवार्त्या निरतिशयया त्वत्पदाब्जं प्रपन्नं त्वद्विन्यस्ताखिल भरममुं युक्तमीश प्रहातुम् तावता ते प्रसङ्गः वस्तुतत्त्वं विचिन्त्य फलम् किम् जलनिधौ हाकिमेश त्वयातम् एतावन्तं समयमियति मार्तिमापादितेऽस्मिन् कल्याणी ते किमिति न कृपा कापि मे भाग्यरेखा पादाम्बोरुह कलिका तामसो भाग्यचोरम् अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णम् लोकातीतं सततशिवदं रूपमप्राकृतं ते
बलममीषा
बल्वजानाभिचिन्त्यम् कथमपि शिवकालक्षेपमात्रप्रधानैः निखिलमपि किञ्चिन्मेनेतः समभिलषणीयं त्रिभुवने सुखं वा दुःखं वा मम भवतु यत् भावि भगवन् समुन्मीलत् सदा उदरभरणमात्रं साध्यमुद्दिश्य नीचे श्वसकृदो सहस्व ममापराधम् मग्नं समुद्धर महत्यमुमापदब्धौ सर्वात्मना तव पदाम्बुजमेव दीनः स्वामिर्ननन्य शरणः शरणो प्रपद्ये स्वामिर्ननन्यशरणः शरणं प्रपद्ये। आत्मार्पणस्तुतिरियं भगवन्निबद्धा यद्यप्यनन्यमनसा मया तथापि वाचापि केवलमयं शरणं वृणीते दीनो वराक इति रक्ष कृपानिधे मां दीनो वराक इति रक्ष कृपानिधे मां रक्ष कृपानिधे मां इति रक्ष कृपानिधे मां कृपानिधे मां शुभमं।